गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रृणवन्नोतिभिस्सीदसादनम् ॐ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आसिनेभ्यः यजामदेवां दधिशक्नवा ममाप्यायसं समावीक्षिदेवाः ॐ मम तु नः परिजवाते मम तु न ते अपान्मृषण्वान् शिशीतमिन्द्रापर्वता इवं विश्वन्नो वस्ये वरिवस्यन्तु देवाः ॐ कथा ते अग्ने शुचयन्त आयोर्दोधात् शुर्वाजे विराशुषाणाः उभे यत्तो ये ददां मारि तस्य सा मन्मृणयन्त देवाः ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यात्सन् ते हनाकं महिमानस्तचन्त यत्र पूर्वे साध्यास्सन्ति देवाः ॐ परा शुभ्रा अयासो यव्यासा धारण्येवो मरुतो बिभिक्षुः नरो दसि अपनुदन्तगो राजुषन्तमृदम् सख्याय देवाः ॐ राजाधिराजाय प्रसंयसाहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ स्वस्ति साम्राज्यं भोज्यं स्वराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्या ईस्यात् सार्वबहुमत्सार्वायुष आन्तादा परार्धात् पृथिव्यै समुद्रपर्यन्ताय एकराळिति तदप्लेशश्लोको विघीतो मरुतः परिवेष्टारो मरुतस्य वसङ्गृहे आविक्षितस्य कामप्रे विश्वे देवा सभासदैति एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात्।